अस्तु, गतसप्ताहे स्मृतेः लक्षणं दृष्टवन्तः. स्मृतेः लक्षणवाक्यम् अस्ति संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. अनेन स्मृतिः संस्कारेण जन्यते, अपि तु एतत् ज्ञानं संस्कारमात्रजन्यम् इति अस्ति. मात्रपदस्य अर्थः कः? केवलम् इति. केवलं संस्कारेण जन्यं ज्ञानं स्मृतिः, न तु इन्द्रियजन्यं ज्ञानम्. संस्कारजन्यत्वे सति इन्द्रिय अजन्यत्वम् इति वदनेन अतिव्याप्तिः निवार्यते, ज्ञाने विद्यमानम् अतिव्याप्तिः निवार्यते. अस्तु, कार्यकारणभावः अपि दृष्टवन्तः. कार्यकारणभावः व्याप्यव्यापकभावः अनयोः सम्बन्धः अपि दृष्टः. यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकभावः. परन्तु विपरीतवाक्यं न सत्यमस्ति, यतोहि कारणत्वं संस्थापनार्थम् अन्यता सिद्धिशून्यता भवेत्. यथा दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः. अनयोः अनेन दण्डस्य कारणत्वं प्रकटीकृतं, दण्डघटयोः सामानादिकरण्यं, दण्डस्य पूर्ववृत्तित्वम्, एतत् सर्वम् उपलक्षितम्. यत्र यत्र घटः तत्र तत्र दण्डः, यत्र यत्र दण्डाभावः तत्र तत्र घटाभावः इत्यनेन व्याप्यव्यापकभावः निर्दिष्टः. व्याप्यव्यापकभावस्य आधारः कः? भूयो दर्शनम् इति महोदयेन उक्तं वर्गे. इत्युक्ते पुनः पुनः अयं सम्बन्धः दृष्टः बालकेन. इत्युक्ते धूमवन्योः सम्बन्धः, वन्य अस्ति चेत् धूमः भवति इति पुनः पुनः तेन दृश्यमस्ति. तेन व्याप्तिज्ञानं जायते. तथैव धूमवह्निः सम्बन्धः अपि, यथा दण्डघटयोः सम्बन्धः तादृशमेव. व्याप्तिज्ञानेन कुत्रचित् दण्डः अस्ति चेदपि घटः न जायते, वा कुत्रचित् वह्नि चेदपि धूमः न भवति इति ज्ञायते. इति स्पष्टीकरणार्थम् एव व्याप्यव्यापकभावः इति अस्ति. अस्तु, इदानीम् अग्रे व्यवहारविषयः विषयं चर्चयामः. आम्
तत्र एकः प्रश्नः अस्ति.
आम् वदतु महोदय.
संस्कारजन्यत्वे सति इन्द्रिय अजन्यत्वं ज्ञानं स्मृतिः इति भरत्या उक्तम्. इत्युक्ते ज्ञानं तु केवलं संस्कारेण वा नो चेत् इन्द्रियेण वा एव भवति, अन्य किमपि उपायः नास्ति इत्यपि स्वीकर्तुं शक्यते वा?
प्रायः महोदय, इन्द्रियेण यत् प्रत्यक्षं यत् ज्ञानम् उदेति तत्तु प्रत्यक्षं ज्ञानम्. तदनन्तरम् अनुमितिज्ञानम् इति अस्ति. अनुमितिज्ञाने तु एकस्मिन् भागः प्रत्यक्षज्ञानम्. इत्युक्ते प्रथमं सोपानं प्रत्यक्षज्ञानं, परन्तु तदनन्तरं व्याप्तिज्ञानम् अपि प्रत्यक्षमेव. पूर्वं दृष्टम् इति कृत्वा प्रायः तत्रापि स्मृतिः अस्ति वा संस्कारः अस्ति, तदनन्तरम् अनुमितिः जायते चतुर्थे सोपाने. शाब्दबोधः इति श्रवणेन वा दर्शनेन जायते तदपि प्रत्यक्षज्ञानम् इति मन्ये. उपमितिः इति तत्तु प्रायः प्रथमं प्रत्यक्षज्ञानम् उदेति हिम इव किं किमपि वस्त्रम् इति कोऽपि वदति चेत् हिमं दृष्टम् इति कृत्वा तत्र प्रत्यक्षज्ञानम्. परन्तु केनचित् सम्बन्धेन उपमितिः जातः इति मन्ये. अतः प्रायः अतः निश्चयेन इन्द्रियजन्यज्ञानम् अस्ति, संस्कारजन्यं ज्ञानम् इति प्रायः चतुर्थविधज्ञानानि सर्वम् अत्र अन्तर्भूतानि इति मन्ये.
यद्यपि इन्द्रियजन्य ज्ञानं विना अनुमितिज्ञानं वा उपमितिज्ञानं वा शाब्दज्ञानं वा न भवति, किन्तु अनुमितिज्ञानम् इति तु भिन्नः. इन्द्रिय प्रत्यक्षे अन्तर्भूतं न कदापि भवितुमर्हति. किमर्थमित्युक्ते तत्र निगमनवाक्यमस्ति किल.
आमां ज्ञानं तु भिन्नं, परन्तु केन जायते इत्येव अत्र विषयः खलु. इन्द्रियेण जायते वा संस्कारेण जायते इति खलु.
आम्, इन्द्रियस्य तत्र तत्रापि व्यापारसम्बन्धः एव अस्ति. साक्षात् इन्द्रियेण पर्वतः बन्यमान् इति न ज्ञातुं शक्यते. तादृशं शक्यते चेत् किमर्थम् अनुमितिः, अनुमानस्य आवश्यकता एव नास्ति.
अवश्यम्, अतः एव मया उक्तम् अनुमितिज्ञाने तु एकः कश्चन भागः अस्ति प्रत्यक्षज्ञानम् इति खलु. प्रथमे सोपाने
सोपानमस्ति, एकः सोपानमस्ति. अस्तु भगिनि, एवमेव पृष्टवान्.
अस्तु अस्तु, अन्य केनापि आगतं वा? अस्तु अस्तु भगिनि, अस्तु अस्तु, अग्रे अन्य कोऽपि अस्ति वा?
भगिनि सावित्री अस्मि.
हा नमस्ते भगिनि.
भगिनी सरला अस्मि अपि.
हा नमस्ते भगिनि.
दशनिमेषु अहं सिद्धा भवामि.
अस्तु अस्तु, दशनिमेषेषु खलु.
आम्
अस्तु भगिनि. अस्तु, विद्याशङ्कर महोदय, पृष्ठसङ्ख्या अस्ति त्रयोविंशत्यधिक एकशतमपुटम् इति
भगिनि. हा, अपि च एकं महोदयस्य प्रश्नस्य विषये मम चिन्तनमस्ति. सप्तपदार्थाः सन्ति किल, ज्ञानं तेषां विषयः एव. ज्ञानम् इत्युक्ते सप्तपदार्थानां विषयमेव ज्ञानं भवति किल.
गुणानां ज्ञानमपि भवत्याः किं वक्तुम् इच्छति इति पूर्णतया
न इत्युक्ते अहं किं वदामि चेत् ज्ञानम् इन्द्रियेण वा अथवा किम् अन्यत्
संस्कारेण
वा भवति इति अस्माभिः चिन्तितम्. अन्य कोऽपि मार्गः अस्ति वा इति महोदयस्य प्रश्नः आसीत् इति मम अवगमनं.
आम् आम्,
द्रष्टुं शक्यते द्रव्यस्य ज्ञानं कथम् उत्पद्यते, गुणः, कर्म इत्यादि तदपि चर्चयामः चेत् अन्यत् किमपि मार्गः अस्ति वा इति इत्यपि
अन्वेष्टुं शक्नुमः प्रायः. आम् समीचीनं भगिनि. आम् अस्तु, विद्याशङ्कर महोदय,
कुत् आरभ्य भगिनि?
पूर्वस्मिन् पूर्वतनपरिच्छेदः तादृश
तादृशान्वयसहचारव्यतिरेकसहचाराभ्याम् इदं कार्यम् इदं च अस्य कारणम् इति निर्धारणे कदाचित् कारणस्य कार्याधिकरणे अदर्शने अपि तत्र कारणानुभूतिः भवति. नदीपूरे सति तद्देशे वृष्टि अभावे अपि ऊर्ध्वदेशे वृष्टिः जाता इति अत एव अनुमीयते. इदमेव कार्येण कारणानुमानम् इति उच्यते. कार्येण कारणानुमानम् इति उच्यते. परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारिते अपि केनचित् प्रमाणेन कारणस्य अभावः कार्यादिकरणे निश्चीयते. तदा इदं कारणम् इदं कार्यम् इति व्यवहारः कथं निर्वाह्यः इति चिन्तायां शास्त्रे व्यापारकल्पना आगता. अत्र अन्वयसहचारः व्यतिरेकसहचाराभ्यां तस्यां चर्चायाम् इदं कार्यम् इदं तस्य कारणम् इति जानीमः चेदपि कदाचित् कारणस्य कार्यादिकरणे अदर्शने अपि कारणानुमितिः भवति. इत्युक्ते यथा भगिन्या भवत्या आरम्भे उक्तं व्याप्यव्यापकभावः अन्वयसहचारः व्यतिरेकसहचारः इति तर्कः अस्ति. तत्र इदं कार्यम् इदं कारणम् इति तत्र तर्कः ज्ञानं भवति. ताभ्यां ज्ञानम् अस्ति चेत् अपि कुत्रचित् कदाचित् कारणस्य कार्यादिकरणे अदर्शनं भवति. इत्युक्ते इदं कार्यम् इदं कारणस्य इदं कार्यस्य कारणं तत्र निकषाः त्रयः सन्ति. तत्र एकमस्ति कारणं कार्यादिकरणे भवेत् इति. कुत्रचित् कारणं कार्यादिकरणे अदर्शनं भवति, न दृश्यते, तत्र कारणस्य अनुमतिः भवति. तत्र इदं कारणं भवेत् इति निश्चितव्यं भवति. किमर्थं चेत् तत्र कार्यकारणभावः जानीमः एव. यथा उदाहरणमत्र दत्तं, नदी पूरे अस्ति, नदी अस्ति, नद्यां जलं वहति, परन्तु तस्मिन् देशे यस्मिन् देशे नदी दृश्यते केनापि दृश्यते तस्मिन् देशे वृष्टिः न अभवत्, वृष्टि अभावः अस्ति, तथापि ओ नद्यां जलम् अस्ति इति अनुमानं कर्तुं शक्यते. यदि अत्र वृष्टिः नास्ति अपि ऊर्ध्वदेशे किञ्चित् पूर्वदेशे यतः नदी आगच्छति तस्मिन् देशे वृष्टिः जाता एव इति अनुमानं कर्तुं शक्नुमः. किमर्थं चेत् जलेनैव नदी पूर्यते इति कार्यकारणज्ञानं पूर्वमेव अस्ति. इदमेव कार्येण कारण अनुमानम् इति उच्यते. यत्र जलम् ऊर्ध्वदेशे अभवत् इति यथा वयम् अनुमानं कुर्मः स च तर्कः कार्येण कारणानुमानम् इति तर्कः, तस्य नामकरणं.
किमर्थं चेत् कार्यं अत्र किञ्चित् भेदः अस्ति. वृष्टिः एव अत्र कारणं खलु, वृष्ट्या नद्यां पूरः अस्ति इति.
इदमेव कार्यं कारणं पूर्वम् अस्ति इति निश्चयेन वक्तुं शक्नुमः अनुमानतर्केन. परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारिते अपि केनचित् प्रमाणेन कारणस्य अभावः कार्यादिकरणे निश्चीयते. इदम् एषः वर्गे चर्चितं कदाचित् अन्वयसहचारः व्यतिरेकसहचारः इति विषयः जानीमः चेत् अपि कारणम् इदं कार्यस्य इदं कारणम् इति अवधारितः इति निश्चितः, तथापि केनचित् प्रमाणेन कार्याधिकरणे कारणं नास्ति इति निश्चीयते. यद्यपि जानीमः कार्यमस्ति ततः कार्यं कारणं भवेत् जानीमः चेदपि केनचित् प्रमाणेन अत्र कारणं न दृश्यते. तदा किं करणीयं, तदा इदं कारणम् इदं कार्यम् इति कथं जानीमः, कथं पूर्णार्थं कर्तुं शक्नुमः इति चेत् शास्त्रे व्यापारकल्पना इति विषयः आगच्छति. व्यापारकल्पना इति किञ्चित् मध्यं कार्यकारणयोः मध्ये आगत्य किञ्चित् ज्ञानं जनयति, अवगमनं जनयति.
समीचीनम्. हा महोदय, अत्र अन्वयसहचारव्यतिरेकसहचाराभ्याम् इदं कार्यम् इत्युक्ते वर्गे पूर्वस्मिन् वर्गे महोदयेन उक्तं यत् सहचारः अपि तु व्याप्तिः, तौ समानौ न. सहचारः इत्युक्ते समानाधिकरण्यं, यत् कार्यकारणभावः निर्दिश्यते. इत्युक्ते एकस्मिन् अधिकरणे यत्र कार्यं भवति तत्रैव कारणमपि अस्ति इति समानाधिकरण्यम्. परन्तु व्याप्तिः इत्युक्ते यत्र यत्र कुत्र कुत्र इत्यनेन सूचितः अस्ति व्याप्तिज्ञानम् इत्युक्ते यथा मया उक्तं वह्नि अस्ति, धूमः अस्ति, कुत्रचित् धूमः न भवति, तत्र पूर्णतया धूमस्य व्याप्तिः सर्वत्र नास्ति. न्यूनदेशस्थः न्यूनदेशीयः अस्ति वा अधिकदेशीयः अस्ति इति तादृशी चर्चा भवति व्याप्तिविषये. परन्तु यत्र कार्यकारणभावः एव चर्चितः अस्ति तत्र केवलं समानाधिकरण्यम् इत्युक्ते दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति अन्वयव्यतिरेकसहचार. केवलं तत् एतत् विषयं वक्तुम् इष्टवती. अस्तु, समीचीनम्. इत्युक्ते यथा भवता विद्याशङ्करमहोदयेन उक्तं, कार्यम् अस्ति चेत् अवश्यं कारणं भवेत् इति. कार्यकारणभावः तु अवधारितः अस्ति. कारणं प्रथमास्थितिः अस्ति, कारणं दृष्टम् अस्ति. तत्र कपालः अस्ति, घटः अस्ति, घटं दृष्ट्वा कपालः अपि अस्ति, प्रत्यक्षेन दृश्यते, तत्तु प्रथमा स्थितिः. द्वितीया अस्ति, अत्र नद्यां पूरः अस्ति, प्रवाहः अस्ति, परन्तु कारणं न दृश्यते अस्मिन् कार्याधिकरणे. कारणम् इत्युक्ते वृष्टिः अत्र न दृश्यते, परन्तु अन्यत्र वृष्टिः अभवत् इति अनुमानं कृत्वा वृष्ट्या एव अन्यस्मिन् देशे या वृष्टिः आसीत् तया एव अत्र नदीपुरः अभवत् इति अनुमानम्, कारणस्य अनुमानम्. तृतीया स्थितिः अस्ति, कारणं प्रत्यक्षेण वा अनुमित्या न वक्तुं शक्नुमः, कारणम् अस्ति इति न वक्तुं शक्नुमः, तदा व्यापारस्य उपयोगं कुर्मः. एव सारांशः अस्तु. अग्रे रामप्रिया भगिनी.
अत्र इदम् इति किल, अत्र इदं निदर्शनं भवति. कश्चित् कुलालः कटनिर्माणे प्रवृत्तः, चक्रदण्डादि सामग्रीम् आदाय उपविष्टः, दण्डेन रभसा चक्रभ्रमणं कृतवान्. चक्रभ्रमणं तु अभूत्, परन्तु दण्ड बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्, तेन च दण्डनाशः जातः. चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट तेन च चक्रभ्रमणेन कपाले अपि भ्रमिः उत्पन्ना, तेन च घटोत्पत्तिः. अत्र इदं निदर्शनं भवति. एतद् पूर्वस्मिन् परिच्छेदे कार्यकारणविषये उक्तवन्तः. निदर्शनं भवति इत्युक्ते अस्मिन् उदाहरणे एतद् निदर्शनं भवति इति. प्रथमं कश्चित् कुलालः घटनिर्माणस्थले घटनिर्माणविषये प्रवृत्तः अस्ति, सिद्धः अस्ति. तस्मिन् समये चक्रदण्डादि सामग्रीम् आदाय उपविष्टः, तत्तु सामग्री घटनिर्माणस्य सामग्री चक्रगण्ड दण्ड आदि सामग्रीम् आदाय उपविष्टः दण्डेन रभसा चक्रभ्रमणं कृतवान्। रभसा इत्युक्ते शीघ्रमेव वा?
बलेन
बलेन ओके बलेन तीव्रेण तीव्रेण चक्रभ्रमणं कृतवान् दण्डेन कुलालः। तस्मिन् चक्रभ्रमणं तु अभूत् अभूत् इति तत्तु अभवत् भूतकाल तत्तु अभवत् लुङ्लकारः तत्तु अभवत्। परन्तु किम् अभवत् इत्युक्ते दण्डे बलविशेषस्थापनात् यदा बलप्रयोगः कृतवान् तस्मिन् कारणात् तस्य नष्टः अभवत्, दण्डस्य अवयवानां विभागः अभूत् भग्नम् अभवत्, तेन च दण्डनाशः जातः। तेन कारणेन दण्डस्य नाशः अभवत्। चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट इत्युक्ते दण्डनाशोत्पत्तिकाले पूर्वमेव चक्रभ्रमणं तु अभूत्, तेन च चक्रभ्रमेण कपाले अपि भ्रमिः उत्पन्ना, तेन च चक्रभ्रमणेन एतत् चक्रभ्रमणेन दण्डनाशोत्पत्तिकाले पूर्वं चक्रभ्रमणम् अभवत्, तस्मिन् कारणेन कपालः कपालस्य उत्पन्नं भवति अभूत् तदपि अभवत्, तेन च घटोत्पत्ति तस्मिन् कारणेन घटो उत्पत्तिः अपि अभवत्।
इत्युक्ते दण्डनाशात् पूर्वमेव चक्रभ्रमणं जायते प्रावर्तिष्ठ भ्रमणं भ्रमणम् अभवत् चक्रभ्रमणम् अभवत् इति तेन च चक्रभ्रमणे कपाले अपि अतः तेन कपाल घटोत्पत्तिः इति अपि अभवत् इति अस्तु। अग्रे शुकवन महोदय कृपया।
अत्र घटोत्पत्ति प्राक्षणे अस्माभिः चक्षुषा नष्टो दण्डः, तत्र दण्डो नास्ति इति अवलोकितम्। एवञ्च कार्योत्पत्तिप्राक्षणे प्रबलेन प्रमाणेन कारणस्य अभावः निश्चितः। तर्हि कारणाभावेपि कार्योत्पत्तिः इति व्यतिरेकव्यभिचारः आपतति, तद्वारणाय पूर्वोक्तः व्यापारः कल्पनीयः। घटोत्पत्ति प्राक्षणे अस्माभिः चक्षुषा नष्टः दण्डः, तत्र दण्डो नास्ति इति अवलोकितं। साक्षात् प्रत्यक्षेन अस्माभिः दृष्टं दण्डस्य नाशः अभवत् इति। कदा इत्युक्ते घटनिर्माणस्य पूर्वमेव यद्यपि दण्डेन चक्रभ्रमणम् अभवत् किन्तु घटस्य निर्माणस्य पूर्वमेव दण्डस्य नाशः अभवत् इति साक्षात् दृष्टं। कारणस्य निकषाः वयं किं दृष्टवन्तः, तत्र कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे पूर्वक्षणे भवेत् इति। इदानीं दण्डः नाशः इति कृत्वा कार्याधिकरणे दण्डः नास्ति, सर्वदा नास्ति, अपि च पूर्वक्षणे नास्ति इति आपतति, इति आपतति इति इत्येव अस्ति। एवं च कार्योत्पत्तिप्राक्षणे प्रबलेन, प्रबलेन इत्युक्ते प्रत्यक्षेण चक्षुषा ज्ञातं, प्रत्यक्षप्रमाणेन कारणस्य अभावः निश्चितः। कारणस्य इत्युक्ते दण्डस्य दण्डस्य नाशः अभवत् इति कृत्वा तत्र त्रयः निकषाः अपि नास्ति। दण्डः तु कार्यादिकरणे नास्ति इदानीं, कार्यादिकरणे सर्वदा नास्ति, अपि च पूर्वक्षणे नास्ति. तर्हि कारण अभावेऽपि कार्योत्पत्तिः इति व्यतिरेकव्यभिचारः आपतति. व्यतिरेकव्यभिचारः इत्युक्ते कारणं नास्ति किन्तु कार्यम् उत्पद्यते इति एव व्यतिरेकव्यभिचारः इति अस्माभिः दृष्टम्. इदानीं दण्डः नास्ति. कदा नास्ति इत्युक्ते कार्योत्पत्तिक्षणे नास्ति. यद्यपि दण्डः नास्ति तथापि कार्यः उत्पद्यते एव, घटः उत्पद्यते एव इति कृत्वा यदि तद्वारणाय पूर्वोक्तः व्यापारः कल्पनीयः. यदि व्यापारः न अस्माभिः न कल्पनीयश्चेत् दण्डः अस्मिन् सन्दर्भे घटस्य कारणं न भवितुम् न अर्हति इति कृत्वा व्यापारस्य कल्पना आवश्यकी भवति.
समीचीनं महोदय. अस्तु अग्रे सन्ध्या
भगिनी. पुनः तत् वाक्यं किमर्थं व्यापारः कल्पनीयः इत्युक्ते कारणं नास्ति किन्तु कार्यम् अभवत्. कार्यस्य कारणं यद्यपि नास्ति, व्यापारः कथं व्यापारः इति शब्दः तत् कथं निवारयति इति सम्यक् न वद.
अग्रे अग्रे पश्येम, व्यापारस्य विवरणानि अग्रे सन्ति. परन्तु अत्र यदि कारणं दृश्यते, कार्यं दृश्यते परन्तु कारणं नास्ति चेत्, कारणं कारणस्य दर्शनं वा कारणं न दृश्यते चेत् तादृशी स्थितिः व्यतिरेकव्यभिचारः इति उच्यते खलु. यत्र यत्र कारणं नास्ति परन्तु कार्यं तु अभवत्. परन्तु अत्र अत्र कश्चन वैलक्षण्यम् अस्ति. अग्रे पठेम व्यापारविषये. परन्तु कारणं नास्ति इत्यस्मिन् स्थाने किं व्यापारः इति कश्चन अंशः अस्ति. व्यापारेण कार्यं जायते इति अग्रे पठेम.
अस्तु.
तदेव व्यतिरेकव्यभिचारः इति भाति परन्तु वस्तुतः व्यतिरेकव्यभिचारः नास्ति. यतोहि यद्यपि कारणं नास्ति न दृश्यते व्यापाररूपेण विद्यते इति अस्ति. अत एव व्यापारेण व्यतिरेकव्यभिचारस्य निवारणं भवति इति. सन्ध्या भगिनी पठति वा?
आं भगिनि. व्यापारो नाम यः कारणात् जायते कार्यं च जनयति. यथा चक्षुषः घटेन संयोगः घटप्रत्यक्षे व्यापारः. चक्षुसंयोगः गुणः चक्षुषा जन्यः. एवं चक्षुषा जायमानं यद् घटप्रत्यक्षं तज्जनकोऽपि. न हि केवलेन चक्षुषा संयोगेन अस्ति घटप्रत्यक्षं क्षम्यताम् न हि केवलेन चक्षुषा संयोगे असति घटप्रत्यक्षम् उत्पद्यते.
तावत्पर्यन्तं भगिनि.
अस्तु. तर्हि यथा पूर्वं दृष्टं तत्र दण्ड घटयोः सन्दर्भे दण्डः नष्टः चेत् तत्र व्यतिरेक अपि च घटनिर्माणः अभवत् चेत् तत्र व्यतिरेक व्यभिचारः इति भाति. तस्य निवारणार्थं व्यापारः इति आगच्छति. तर्हि व्यापारः कः इत्युक्ते यः कारणात् जायते अपि च कार्यमपि जनयति इति. तस्य अपरम् उदाहरणम् अस्ति चक्षु अपि च घटयोः तत्र संयोगः. तत्र घटप्रत्यक्षम् इति कार्यमस्ति. तत्र चक्षुषः घटस्य च संयोगः इति व्यापारः अस्ति. एतत् समीचीनं वा?
आम् आम् सम्यक् भगिनी.
तर्हि तत्र चक्षुसंयोगः यः अस्ति गुणः, सः गुणः चक्षु इति यद् द्रव्यमस्ति तेन ज्ञः अस्ति. अपि च यद् घटप्रत्यक्षम् इति यत् कार्यमस्ति तदपि जनयति चक्षुसंयोगः इति इति यत् यत् किमपि अंशः अस्ति तस्य नाम व्यापारः इति. केवलं चक्षुः अस्ति अपि च घटः अस्ति चेत् न तत्र घटप्रत्यक्षम् इति कार्यं न भवति, तत्र संयोगस्य आवश्यकता अस्ति, चक्षुघटयोः संयोगः तत्र आवश्यकता अस्ति इति एतावत्पर्यन्तम् उक्तम्.
अत्र कारणं किम् अस्ति कार्यं प्रति? भवत्या उक्तं कार्यम् अस्ति घटप्रत्यक्षम्
इति,
तर्हि कारणं किम्?
कारणं चक्षुः इति वा?
हा, चक्षुः एव. चक्षुः इति द्रव्यम् अस्ति खलु, चक्षुः इति कारणं. तर्हि चक्षुषी किमस्ति? गुणः उत्पद्यते संयोगरूपगुणः खलु. केन सम्बन्धेन?
सः गुणः अस्ति समवायसम्बन्धेन वा?
हा, समीचीनम् एव. चक्षुः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन संयोगनामकगुणम् उत्पादयति. हा, कार्यं प्रति संयोगः चक्षुघटसंयोगः व्यापारः इति यथा भवत्या उक्तम् अस्तु. अत्र एवं चक्षुषा जायमानं यत् घटप्रत्यक्षं तज्जनको अपि, कः जनकः?
चक्षुसंयोगः इति जनकः.
हा,
कार्यस्य जनकः घटप्रत्यक्षम् इति यत् कार्यं तस्य जनकः चक्षुसंयोगः. अपि च कारणं चक्षुः इति अस्ति तेन जन्यः इति अस्ति, तदेव कारणात् जायते कार्यं च जनयति इति परस्य यद् लक्षणमस्ति तदेव अस्ति.
समीचीनं. पूर्वमपि अस्माभिः पठितं व्यापारविषये तज्जन्यजनकत्वं व्यापारस्य लक्षणम् इति. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति. अत्र तज्जन्य इत्युक्ते किम् अस्मिन् उदाहरणे?
तज्जन्यत्वे सति इति तत् इत्युक्ते अत्र अस्मिन् उदाहरणे चक्षुः इति.
तेन किं जन्यः अस्ति?
तेन जन्यः अस्ति घटप्रत्यक्षम्, अतः तेन इति अत्र संयोगः.
एकनिमिषं भगिनी, व्यापारस्य लक्षणं खलु.
आम्,
चक्षुषा कः जन्यः?
चक्षुषा संयोगः जन्यः इति.
संयोगः एव जन्यः खलु.
आम्,
यत् यत् मध्यम स्तरे अस्ति इत्युक्ते माध्यमरूपेण कार्यं करोति सः एव व्यापारः. तज्जन्यत्वे सति इत्युक्ते चक्षुषा जन्यः व्यापारः, चक्षुषा जन्यः संयोगः. अत्र पुनः तज्जन्यजनकत्वम् इत्युक्ते किम्?
तज्जन्यत्वे सति तज्जन्यजनकत्वम् इत्युक्ते अत्र कार्यम् इति वा? तज्जन्यजनकत्वम् इत्युक्ते कार्यजनकत्वम् इति.
आम् आम्, कार्यजनकत्वं तस्मिन् अस्ति इति.
अतः अस्माकम् उदाहरणे प्रथमं तद् इत्युक्ते चक्षुः, अनन्तरं तज्जन्यजनकत्वम् इत्यत्र तत्र घटप्रत्यक्षम् इति.
सर्वं व्यापारस्य सूचकम् एव अस्ति, संयोगस्य सूचकमेव खलु. व्यापारे किं किम् अस्ति? तज्जन्यत्वम् इत्युक्ते कारणस्य जन्यत्वम् अस्ति व्यापारे.
आम्.
पुनः कार्यस्य जनकत्वम् अस्ति व्यापारे.
आम्.
तदेव अस्ति तज्जन्य, तज्जन्यत्वे सति तज्जन्यजनकत्वम्. अत्र तत् प्रथम तत् इत्युक्ते प्रथमं तत् इति कारणस्य सूचनम्.
आम्.
तज्जन्यजनकत्वम् इति द्वितीयं तत् इति
तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति.
सावित्री भगिनि.
आमां तर्हि भगिनि, तत्र तज्जन्यजनकत्वम् इति तत्र तत् इति पुनः यथा भवती वदति तद् व्यापारः इति अस्ति, परन्तु तज्जन्य जनकत्वम् इत्युक्ते तत्र तज्जन्यं यदस्ति द्वितीये किं द्वितीयांशे तत् कार्यमस्ति किल, कार्यजनकत्वम् अस्ति किल व्यापारे. हा हा. तर्हि अहं यद् वदन्ती आसम् तद् द्वितीय अंशे प्रथमपदद्वयम् उक्त्वा तत्र व्यापार तत्र कार्यम् इति उक्तवती. आं भगिनि, आगतं यद् भवती वदति तदेव चिन्तनमासीत्, अहं प्रायः स्पष्टतया न उक्तवती तावदेव.
न न न, भवत्या उक्तमेव. इत्युक्ते व्यापारे कारणस्य जन्यत्वम् अपि तु कार्यस्य जनकत्वम् इत्येव सारांशः. अस्तु
इत्युक्ते चक्षुः संयोगस्यापि जनकः, प्रत्यक्षस्यापि जनकः न वा?
संयोगस्य जनकः अस्ति चक्षुः, पुनः प्रत्यक्षजनक
तत्रापि चक्षुः एव. प्रत्यक्षज्ञानस्य प्रत्यक्षस्य जनकः चक्षुः एव, मध्ये व्यापारः आगच्छति.
हा, परन्तु अत्र व्यापारे कार्यत्वम् अपि तु कारणत्वम् अस्ति इति कृत्वा घटप्रत्यक्षस्य कारणत्वं व्यापारे अस्ति इत्युक्ते चक्षुसंयोगे अस्ति.
तदपि अस्ति, परन्तु तज्जन्यत्वे सति तज्जन्यजनकत्व इत्युक्ते चक्षुषा जन्यत्वे व्यापारः संयोगः सति तज्जन्य चक्षुषा जन्यप्रत्यक्षस्य जनकत्वं व्यापारे संयोगे अस्ति, व्यापारे अस्ति.
तज्जन अत्र पूर्वस्मिन् करपत्रे यत् मया पठितमस्ति तज्जन्यत्वं व्यापारे अस्ति. तज्जन्य इत्युक्ते पुनः व्यापारेण जन्यं यत् घटप्रत्यक्षं तस्य जनकत्वं व्यापारे अस्ति इति. अवगतं वा?
ओ, द्वितीय तज्जन्य तत्र तज्जन्य इत्युक्ते प्रत्यक्षं
न, चक्षुसंयोग व्यापारः
संयोगः एव
इत्युक्ते माध्यं यत् अस्ति, यः जन्यः भवति तस्य जन्यः पुनः घटप्रत्यक्षं तस्य जनकः व्यापारः इति. धारावाहिकरूपेण स्वीकुर्मः तज्जन्यत्वे सति तत् पुनः तज्जन्य यत् जन्यः अस्ति तज्जन्यजनकत्वम् अस्मिन् अस्ति इति. चक्षुसंयोगः चक्षुषा जन्यते, पुनः चक्षुसंयोगेन यज्जन्यः अस्ति घटप्रत्यक्षं तस्य जनकः चक्षुसंयोगः इति. स्पष्टं वा?
आं भगिनि, धन्यवादः.
भगिनि क्षम्यतां, ब्रह्म व्यापारे तज्जन्यत्वम् अस्ति, व्यापारे तज्जन्यजनकत्वम् अस्ति खलु?
आम् आम् आम्.
अस्तु, अत्र तद् इत्युक्ते तत् तदित्युक्ते अत्र व्यापारः इति भवति वा?
प्रथम तत् इत्युक्ते कारणं, कारणस्य जन्यत्वं व्यापारे इति प्रथम तत्. तज्जन्य, पुनः तज्जन्य यत् यत् जन्यते तस्य, पुनः तेन यत् जन्यः भवति घटप्रत्यक्षं, तस्य जनकत्वं व्यापारे इति.
भगिनी अत्र स्थूल अक्षरैः दत्तमस्ति, व्यापारो नाम कारणात् कान्ते कार्यं च जनयति. अत्र कारणात् इत्युक्ते व्यापारः चक्षुषा चक्षुसंयोगः भवति, तत् कारणात् जायते कार्यं घटप्रत्यक्षं जनयति.
यः कारणम् अत्र अस्ति चक्षुः खलु भगिनि?
ननु अत्र व्यापारो नाम कारणात् जायते कार्यं च जनयति. अत्र कारणात् जायते इत्युक्ते चक्षुषा चक्षुषः कारणम् अस्ति, कारणात् तस्मात् कारणात् जायते व्यापार चक्षुसंयोग कार्यं जनयति घटप्रत्यक्षम्.
तदेव खलु अत्र भिन्नरीत्या श्रुतः वा?
तज्जन्यते भवति चक्षुसंयोग सति, तज्जन्यजनकत्वम् अस्ति घटप्रत्यक्षं, जनकत्वं भवति कारण तस्य.
पुनः भगिनि?
तज्जन्यते अस्ति चक्षुसंयोगः, चक्षुषात् संयोग व्यापार, तज्जन्य भवति घटप्रत्यक्षं, जनकत्वं भवति कारण.
कारणम् इत्युक्ते
प्रत्यक्षस्य घटप्रत्यक्षस्य कारणम् अस्ति चक्षुषात् संयोगजन्यतं पूर्वं
चक्षुसंयोगः इति खलु?
आम्,
घटप्रत्यक्षजनकः अस्ति चक्षुसंयोगः खलु?
आम्.
चक्षुसंयोगः व्यापारः. आं भगिनि, आम्, कारणजन्यः अस्ति चक्षुसंयोगः, पुनः कार्यजनकः अपि अस्ति खलु? स्पष्टमस्ति वा? अत्र सन्देहः अस्ति चेत् कृपया पृच्छन्तु. व्यापारे कारणजन्यत्वम् अस्ति अपि तु कार्यजनकत्वम् इत्येव सारांशः. स्पष्टम्? अस्तु,
कारणं तु चक्षुः, कार्यं किं?
कार्यम् अस्ति चक्षुषा चक्षुसंयोगः जायते, पुनः चक्षुसंयोगेन घटप्रत्यक्षं जायते. माध्यमेन कार्यं करोति चक्षुसंयोगः इति कृत्वा व्यापारः. अस्तु भगिनी, सन्ध्या भगिनी, न हि केवलेन चक्षुषा संयोगे असति घटप्रत्यक्षम् उत्पद्यते इत्यस्य अर्थः कः इति वदति वा?
इत्युक्ते केवलं चक्षुः अस्ति अपि च घटः अस्ति चेत् तत्र घटप्रत्यक्षं न भवति. तत्र यदि संयोगः नास्ति तर्हि घटप्रत्यक्षं न भवति. संयोगे असति इत्युक्ते संयोगस्य अभावे घटप्रत्यक्षं न भवति.
समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनी.
आं भगिनि,
तथा सति
निमीलितचक्षुषः पुरुषस्य अपि घटप्रत्यक्षत्व आपत्तिः. अतः चक्षुरिव तत्संयोगो अपि अपेक्षितः. एवञ्च चक्षुस्संयोगः कारणजन्यः कार्यजनकः इति स एव व्यापारः इति उच्यते. इत्थमेव कपालेन घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम्. अस्तु अस्तु. पूर्वं यथा उक्तं, यथा सञ्जया भगिनी उक्तवती, यदि संयोगः संयोगस्य अभावेन घटप्रत्यक्षं न भवति. इत्युक्ते यदि कः कश्चन पुरुषः अस्ति, तस्य चक्षुः निमीलितः अस्ति, तथापि घटप्रत्यक्षस्य आपत्तिः भवति. अतः संयो तत्र चक्षुषा जन्यसंयोगः अपि आवश्यकं भवति. अतः चक्षुरिव तत् संयोगो अपि अपेक्षितः. न केवलं चक्षुः, चक्षुषा जन्यसंयोगः अपि तत्र अपेक्षितः घटप्रत्यक्षं प्रति.
अत्र तथा सति इत्युक्ते किं भगिनि? तथा सति इत्युक्ते
तथा सति इत्युक्ते यदि यदि चक्षुः एव तत्र अस्ति, संयोगस्य अभावः अस्ति, तादृशप्रसङ्गे निमीलितचक्षुषस्य पुरुषस्य अपि घटप्रत्यक्षं भवति. किन्तु अस्माकम् अनुभवः तथा नास्ति.
समीचीनं भगिनि.
अस्तु. एवञ्च चक्षुस्संयोगः कारणजन्यः कार्यजनकः. चक्षुसंयोगः चक्षुषा जन्यः, चक्षुः तस्य कारणः. चक्षुस्संयोगः कारणजन्यः अपि च चक्षुसंयोगः इदानीं कार्यम् अपि जनयति, घटप्रत्यक्षमिति कार्यमपि जनयति. अतः चक्षुसंयोगः कारणेन जन्यः कार्यस्य जनकः अपि. इति स एव व्यापारः इति उच्यते. व्यापारः इत्युक्ते कारणेन कोऽपि कारणेन जन्यः अपि च कार्यस्य जनकः अपि भवति. इत्थमेव कपालेन घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम्. अस्तु. अत्र कपालेन घटस्य उत्पन्नः भवति कपालद्वयसंयोगेन घटस्य. अस्तु. अहम् अस्तु. अत्र प्रायः कपालद्वयसंयोगः तत्र संयोगः इति कपालेन जन्यः तत् घटस्य जननी अपि. जननीय इति कीदृशपदम् अस्ति? अहम् ऐ मीन्
इत्थमेव कपालेन घटे जननीये इत्युक्ते प्रायः तत्र घटस्य जननम् अस्ति तथा सति इति प्रायः सतिसप्तमी. न शुकवनमहोदय, अन्य कोऽपि वदति वा तत्र?
सतिसप्तमी एव, किन्तु तत् अनियर् प्रत्ययः, जननीय जननीयम् इति जननीये.
धन्यवादः महोदय.
घटे जननीये अनियर् प्रत्यय सप्तमी भवति. घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम्. अस्तु. किन्तु अत्र
अत्र व्यापारः कः?
अत्र व्यापारः कपालद्वयसंयोगः. कपालद्वयसंयोगः व्यापारः. कार्यं घटः.
अत्र व्यापारस्य लक्षणं दृष्ट्वा वदतु भगिनि, व्यापारस्य लक्षणं किम्?
व्यापारस्य लक्षणमस्ति कारणेन जन्यः, कारणेन जन्यः अपि च कार्यमपि जनयति।
हा, अत्र कारणं किम्?
अत्र कारणम् अत्र कारणं कपालः, कपालः कपालसंयोगः जनयति।
कथं जनयति?
अन्यकपालेन
इत्युक्ते कपालद्वयसंयोगः इति गुणः खलु?
समवायसम्बन्धेन कपालद्वयोः मध्ये संयोगः, कपालद्वयोः मध्ये यत् संयोगः जातः तत् घटं जनयति।
इति कृत्वा कपालद्वयसंयोगः व्यापारः।
आम्,
अत्र सन्देहः अस्ति वा?
आम्, इदानीमपि जननीये इति अनियर् प्रत्यये सति सप्तमी इति तत्सर्वम् अहं अवगतवती, किन्तु किमर्थं जननीये इति उक्तमिति अहं सम्यक् तत् वाक्ये किमर्थं जननीये अस्ति इति अहं सम्यक् न अवगतं, मया सम्यक् न अवगतम्।
जननीये जननम् इति अहम् अवगच्छामि, परन्तु जननीये इति अहमपि न सम्यक्तया न अवगच्छामि भगिनि, परन्तु पृष्ट्वा वदामि ई पत्रेण।
अन्य कोऽपि अवगतवती,
अन्य कोऽपि वक्तुमिच्छति चेत् कृपया, किमर्थं घटे जननीये इति अस्ति, सतिसप्तमी इति जानीमः,
वदामि वा भगिनि?
कपालः
एव घटं जनयति इति, तव्यत्वा अनियर् इत्युक्ते तदेव कारणम् इति यदा विधिलिङ्ग्, कपालः एव घटस्य कारणं किल, अन्य कोऽपि अस्मिन् प्रसङ्गे।
भगिनि अत्र संशयः कः भगिनि?
अत्र जननीये इत्यस्य रूपं किम् इति
मयापि तथैव चिन्तितं यथा महोदयेन उक्तं, जननीये अस्मिन् कार्ये इति, घटे जननीये घटजननीयकार्ये इति स्वीकर्तुं शक्नुमः जननीये इति।
इत्युक्ते
कपालेन इत्युक्ते कपालेन घटः जननीयः इति मूलवाक्यम् इति स्वीकुर्मश्चेत्, कपालेन घटे जननीये कपालसंयोगः तु व्यापारः अस्ति इति।
अस्तु भगिनि, इदानीं समीचीनं, कपालेन घटः जननीयः, अतः कपालेन घटे जननीये कपालसंयोगस्य व्यापारं वर्णनीयम्। अस्तु, इदानीं समीचीनम्,
धन्यवादः।
घटे जननीयः इति अशुद्धम् इति अहं चिन्तयामि, कपालेन घटः जन्यः अस्मिन् विषये, घटे जन्यविषये जननीये इत्युक्ते तादृशम् अर्थं भवति, विषयसप्तमी इति अहं चिन्तयामि, कपालसंयोगस्य व्यापारत्वं वर्णनीयम्।
अस्तु, अहं पृच्छामि महोदय अत्र स्पष्टतया,
किन्तु अनियर् प्रत्यय आनेतव्यं खलु, अतः अहं तथा उक्तवती, घटं जननीयं घटे जननीये तत्
इति अहमपि चिन्तयामि, परन्तु
तादृशमेव अस्ति, किन्तु तत्र घटे जननीये सति कपालसंयोगस्य इति न वक्तुं, तत्र सति सप्तमी नास्ति, घटस्य जननस्य विषये कपालसंयोगस्य व्यापारत्वं वर्णनीयम् इति
भवति. अस्तु 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 धन्यवादः
महोदय. प्रश्नः अस्ति, कपालसंयोगः तु घटं प्रति द्वितीय प्रथमविध असमवायिकारणम् इति अस्ति, व्यापारमपि अस्ति वा सामान्यमेव तत्र व्यापारम् असमवायिकारणं तत्र किं चिन्तनं?
समानम् इति न, किमर्थम् असमवायिकारणं? कपाल व्यापार व्यापाररूपेण किमर्थं कपालसंयोगः अस्ति इति स्पष्टः अस्ति, परन्तु
पूर्वं पठितं प्रथमविध असमवायिकारणस्य उदाहरणमेव अस्ति कपालद्वयसंयोगः घटं प्रति असमवायिकारणम् इति.
इत्युक्ते तस्य लक्षणवाक्यं किम्? असमवायिकारणस्य लक्षणवाक्यं किं? समवायिकारणे
समवायेन कारणे तिष्ठ्वा कारणं प्रति कार्यं प्रति समवायेन कार्यं जनयति
जनयति इति. अत्र कपालसंयोगः समवायेन कपाले अस्ति, पुनः समवायेन घटं जनयति, तदपि सत्यम् असमवायिकारणम् अस्ति, परन्तु सर्वथा व्यापारः असमवायिकारणं वा इति सम्यक् प्रश्नः एव. चक्षुविषये किम् अस्ति? चक्षुघटसंयोगविषये
तत्र व्यापारः स्पष्टमस्ति, मध्ये आगच्छति व्यापारं विना यथा उदाहरणं निमीलितचक्षुषा न दृश्यते, तस्मात् उदाहरणात् मध्ये व्यापारः एव आगच्छति, तत्र मम क्लेशः नास्ति. किन्तु अत्र कपालसंयोगः पूर्वं पठितम् असमवायिकारणम् इति, ततः अत्र किं 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 भेदः कः
इति व्यापारः इति प्रश्नः खलु भवतः?
व्यापारः अपि अस्ति तदपि अस्ति द्वयमपि अस्ति इति दृश्यते.
आम् आम् कपालसंयोगः तु अवश्यम् असमवायिकारणम्, अत्र व्यापाररूपेण अपि अस्ति, परन्तु सर्वथा तादृशस्वभावः अस्ति वा व्यापारस्य इति प्रायः न जानामि, परन्तु महोदयं पृच्छामि.
अत्र वाक्यद्वयं वक्तुम् इच्छामि.
आम्,
प्रथमं तु चक्षुसंयोगः विषये. चक्षुसंयोगः तु चक्षुषि समवायेन अस्ति, किन्तु अनेन यत् ज्ञानं जायते तत्तु आत्मनि जायते इति कृत्वा तत्र समवायिकारणं वा असमवायिकारणं वा न भवितुम् अर्हति. किमर्थमित्युक्ते ज्ञानं कुत्र जायते इत्युक्ते आत्मनि एव जायते, न तु चक्षुषि. किन्तु तत् एकम्, अतः तत्र चक्षुसंयोगविषये असमवायिकारणत्वं नास्ति, व्यापारमेव स्वीकार्यं तत्र. इदानीम् अस्मिन् उदाहरणे कपालसंयोगस्य उदाहरणे असमवायिकारणत्वं निश्चयेन अस्ति, तदेव अस्माभिः पठितं समवायेन स्थित्वा समवायेन कार्यं जनयति इति. इत्युक्ते अत्र कीदृशकारणम् इति चिन्तनं नास्ति, व्यापारः इति व्यापारः इत्युक्ते किं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इत्येव अत्र चिन्तनं. तद्व्यापारः असमवायिकारणमपि भवितुमर्हति, निमित्तकारणमपि भवितुमर्हति. दण्डः घटं प्रति निमित्तकारणम् इति अस्माभिः पूर्वं पठितम्. अत्र दण्डः इति उदाहरणं तु निमित्तकारणत्वं व्यापारत्वेन निमित्तकारणं भवति, कपालसंयोगः असमवायिकारणत्वेन व्यापारं भवति.
चक्षुघटसंयोगः अपि असमवायिकारणम् इति भवान् वदति वा?
न, तत्र चक्षुसंयोगः असमवायिकारणं नास्ति. किमर्थम् इत्युक्ते यद्यपि संयोगः चक्षुषि समवायेन वर्तते, किन्तु कार्यं कुत्र जनयति इत्युक्ते आत्मनि एव कार्यं जनयति. ज्ञानं तु आत्मनि एव भवति किल, अतः निमित्तकारणं भवति. दण्डः व्यापारः, किन्तु दण्डः निमित्तकारणमस्ति. चक्षुसंयोगः अपि व्यापारः, चक्षुसंयोगः निमित्तकारणमस्ति. कपालसंयोगः अपि व्यापारः, किन्तु कपालसंयोगः असमवायिकारणमस्ति.
भवान् वदति सत्यमेव दृश्यते. अत्र कारणस्य चर्चा कीदृशं कारणम् इति चर्चा न, यथा व्यापारत्वम् इत्युक्ते किम् इत्यस्य चर्चा.
कपालसंयोगः असमवायीकारणं भवति व्यापारत्वेन.
आम् आम्
इति पर्यायः इत्युक्ते केवलं निमित्तकारणमेव व्यापारः भवितुम् अर्हति इति न, असमवायिकारणमपि व्यापारं भवितुम् अर्हति.
आम् आम् इत्येव दृश्यते. अस्तु, धन्यवादः महोदय.
भगिनी, एकः प्रश्नः अस्ति, किञ्चित् भिन्नविषयः अस्ति. गुणस्य जनकः सर्वदा अधिकरणमेव भवति वा, द्रव्यमेव भवति वा?
आम् अवश्यं भगिनी,
किल समवायिकरणम् अधिकरणं
गुणगुणिनयोः समवायसम्बन्ध एव खलु?
समवायसम्बन्धः अवगच्छामि, किन्तु गुणस्य जनकः द्रव्यम् इति किल
सर्वथा?
नास्ति भगिनि, तादृशं
न भगिनि,
वदामि. द्वित्वम् इति गुणः स्वीकुर्मश्चेत् तत्र अस्माकम् अपेक्षा बुद्धिः एव निमित्तकारणत्वेन तत्र कार्यं जनयति.
हा, परन्तु रत्ना भगिन्याः प्रश्नः अस्ति समवायिकारणं किम् इति खलु भगिनी?
हा, गुणस्य जनकः इत्युक्ते
जनकः इत्युक्ते कारणरूपेण यत्किमपि भवतु खलु, समवायिकारणं वा असमवायिकारणं वा निमित्तकारणम् इति वा?
मम प्रश्नः एव समीचीनः नास्ति इति चिन्तयामि.
जनकः इत्युक्ते यत् जनयति इति खलु,
इत्युक्ते वदामि इदानीं कपाले रूपम् अस्ति, रूपस्य कारणं किं कपाले?
कपालः समवायिकारणम् अस्ति रूपस्य.
आम् तद् जानामि, इत्युक्ते अत्र जनकः इति किमपि नास्ति. अस्तु,
घटस्य रूपं प्रति कपालः समवायिकारणम् अस्ति इति कृत्वा कपालः जनकः, अपि च कपालस्य रूपम् अपि असमवायिकारणत्वेन तत्र जनकः भवति एव
घटरूपं प्रति. हा, परन्तु भगिन्याः प्रश्नः कपालरूपं, कपालरूपविषये अस्ति.
आम्, कपालरूपविषये. जनकः इति न उपयोगं करणीयं, समवायिकरणम् असमवायिकरणम् इति वदामः चेत् तत्र प्रायः ज्ञातुं शक्नुमः सम्यक्
रीत्या.
किमपि क्लेशः नास्ति, कपालस्य रूपं प्रति कपालः जनकः एव, किमर्थमित्युक्ते तादात्म्येन स्थित्वा समवायेन कार्यं जनयति.
पूर्वमपि अस्माभिः
कारणस्य,
किन्तु तदा वदामः चेत् बहवः जनकाः भवन्ति किल महोदय, घटरूपं प्रति
बहवः जनकाः सन्ति एव,
सन्ति एव.
पठितं खलु आश्रयनाशजन्यगुणनाशः, आश्रयनाशगुण्यगुणनाशत्वम् इति, तत्र बहवः जनकाः यथा तेजस्संयोगः तत्र नूतनगुणम् उत्पादयति खलु.
अपि च इदानीमेव घटस्य उत्पादनार्थं बहवः जनकाः भवत्येव, समवायीकारणत्वेन कपालः भवेत्, कपालसंयोगः असमवायिकारणत्वेन भवेत्, अपि च दण्डः निमित्तकारणत्वेन दण्डः, चक्रभ्रमणम् एतादृशं निमित्तकारणत्वेन भवेत् इति, तत्सर्वं जनकाः एव घटस्य घटं प्रति.
अत्र भगिनी रत्ना भगिनी, सप्तसप्ततिः तमे पुटे अस्ति जन्यता जनकता इति सर्वं चित्राणि पश्यन्तु, यथा समयावकाशः भवति. तत्र कारणता कार्यता रूपेण एव अस्ति जनकता अपि तु जन्यता इति.
हा 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 अस्तु भगिनि, पश्यामि.
पश्यतु, अस्तु, हा अग्रे सरेम. राजेन्द्रमहोदय.
आम् आं भगिनि. प्रकृते च दण्डे नष्टे अपि चक्रे उत्पन्ना परम्परया कपाले च उत्पन्ना भ्रमिः दण्डेन एव उत्पन्ना एवं घटं प्रति सा जनिका च भवति. अतः तादृशभ्रमणं भवति नष्टस्य अपि दण्डस्य व्यापारः. अस्तु. प्रकृते च दण्डे नष्टे अपि चक्रे उत्पन्ना परम्परया कपाले च उत्पन्ना भ्रमिः दण्डेन एव उत्पन्नाः उत्पन्ना. प्रकृते अस्मिन् यथा वयं पूर्वं पठितवन्तः तत्र अत्र तु दण्डः नष्टः जातः, परन्तु अत्र तु प्रकृते च दण्डे दण्ड यदा यथापि नष्टं नष्टं जातं तथापि तत्र तेन दण्डेन चक्रे यः या भ्रमणम् उत्पन्ना अभवत् परम्परया तेन भ्रमेण कपाले अपि भ्रमिः उत्पन्ना दण्डेन एव उत्पन्ना वक्तुं शक्नुमः. यथा यथा यद्यपि दण्डः नष्टः जातः परन्तु यथा पूर्वं चक्रस्य भ्रमणम् अभूत् तत् कारणतः कपाले अपि भ्रमिः उत्पन्नः जातः. सा भ्रमिः तु दण्डेन एव उत्पन्ना. एवं घटं प्रति सा जनिका च भवति. सा इत्युक्ते भ्रमिः. भ्रमिः तु घटं प्रति जनिका भवति. यथा घटं जनयति. अतः तादृशभ्रमणं भवति नष्टस्य अपि दण्डस्य व्यापारः. अतः तादृशभ्रमणम् अतः इत्युक्ते यथा दण्डः नष्टः जातः तत् यथा चक्रे भ्रमि उत्पन्ना भ्रमणम् उत्पन्नः जातः तत् तदनन्तरं कपाले अपि भ्रमि उत्पन्नः तादृशभ्रमणं यः घटे भवति सः भ्रमणम् अपि भ्रमणं नष्टस्य अपि दण्डस्य व्यापारः. तत् तादृशव्यापारत्वेन एव दण्डः भ्रमणं दण्डस्य प्रति तस्य व्यापारः एव अस्ति. दण्डभ्रमणं तस्य प्रति व्यापारः एव अस्ति.
एकनिमिषं महोदय, अत्र व्यापारस्य लक्षणम् आदाय वदतु.
व्यापारस्तु लक्षणम् अस्ति स्वजन्य व्यापार स्वजन्य अत्र
न पूर्वमस्ति खलु, पूर्वस्मिन् परिच्छेदे व्यापारो नाम यः कारणात् जायते.
यः कारणात् जायते कार्यं च जनयति.
अत्र कारणं किम्?
कारणम् आसीत् दण्डभ्रमणम्. दण्डेन जन्य यः व्यापारः सः एव कारणं जनयति अपि च कार्यम् अपि जनयति. घटमपि जनयति, भ्रमणमपि जनयति, घटमपि जनयति.
कीदृशं भ्रमणं जनयति?
कीदृशम्
इत्युक्ते दण्डेन भ्रमिः जायते. दण्डेन भ्रमिः कुत्र जायते?
चक्रे जायते भ्रमिः.
तया किं भवति?
तया कपाले भ्रमिः उत्पन्ना भवति. ऐ मीन् तत् यथा चक्रे भ्रमिः उत्पन्ना अभवत् तत् कारणात् तत् कपाले अपि भ्रमिः उत्पन्ना भवति. यद्यपि दण्डः नष्टः जातः पूर्वं.
हा तर्हि का जनिका अस्ति अत्र?
ब्रह्मिः जनिका भवति घटं प्रति. सा ब्रह्मी ब्रह्मिः घटं प्रति जनिका भवति.
समीचीनं. अग्रे रत्ना भगिनी पठति वा?
आं भगिनि, तथापि इति आरभ्य किल.
न, पृष्ठसङ्ख्या अस्ति पञ्चदशाधिक एकशतम्.
अस्तु,
दण्डस्तु इति आरभ्य अन्तिम्यां पङ्क्त्याम् अस्ति.
अस्तु,
115 इति, पेज् 115.
दण्डस्तु इति आरभ्य वा?
आम् आम्, अन्तिमं पदम् अस्ति तस्मिन् पृष्ठे.
अस्तु, हा हा, दण्डस्तु कपाले परम्परासम्बन्धेन भवति, स च परम्परासम्बन्धः स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः. दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत्. किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रेपि भ्रमिः भ्रमणम् उत्पद्यते. तेन च भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते. अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः तज्जन्याभ्रमिः कपालनिष्ठाभ्रमिः तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयति इति. इहापि अन्य एव सम्बन्धः कार्यकारणभावघटकः. अतः दण्डः घटं प्रति अस्तु. अत्र दण्डः स्वयं कपाले न भवति, दण्डः कपाले परम्परासम्बन्धेन भवति. स च परम्परासम्बन्धः कथं भवति इत्युक्ते स्वजन्यभ्रमिजन्यभ्रमिमत्तरूपः इत्युक्ते स्वा इत्युक्ते दण्डः इति चिन्तयामि. स्वजन्य इत्युक्ते स्वजन्यभ्रमिः इत्युक्ते दण्डजन्यभ्रमिः. अनन्तरं तया भ्रम्यजन्यभ्रमिमत्तरूपः इत्युक्ते प्रथमभ्रमिः दण्डेन जन्या अस्ति. अनन्तरं द्वितीयभ्रमिः प्रथमभ्रम्या जन्या भवति.
कुत्र भवति, कुत्र जन्या अस्ति?
द्वितीयजन्या कपाले अस्ति. द्वितीयभ्रमिः कपाले अस्ति, प्रथमभ्रमिः चक्रे अस्ति.
समीचीनं.
अस्तु, दण्डं यदि संयोगेन कपाले स्थापयामः, पुनः परम्परासम्बन्धेन एव दण्डं कपाले भवितुम् अर्हति. स्वयं दण्डं कपाले स्थापयामः चेत् तत्र कपालः नष्टः भवति. किन्तु यदि चक्रे विद्यमानं दण्डं यदि छिद्रः भवति, इत्युक्ते दण्डस्य नष्टः भवति, दण्डः नष्टः भवति, तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रेपि भ्रमिः. अस्तु, पुनः तदेव उक्तं, दण्डभ्रमणात् यदि दण्ड उपयोगात् कारणात् चक्रभ्रमणं भवति, तस्य संयोगवशात् इत्युक्ते दण्डस्य संयोगवशात् दण्डस्य भ्रमणं कुर्मः, तस्य संयोगवशात् चक्रे अपि भ्रमिः भवति.
इत्युक्ते संयोगः इत्युक्ते केन, केन सह संयोगः?
दण्डचक्रयोः संयोगः.
समीचीनं.
दण्डचक्रयोः संयोगवशात् चक्रे अपि भ्रमिः भवति. तेन भ्रमणेन अस्तु, इदानीं कपालः चक्रस्य उपरि अस्ति, चक्रकपालयोः संयोग सम्बन्धः अस्ति, अतः चक्रभ्रमणेन कपालभ्रमणः अपि भवति. भ्रमणं जातम्. अतः स्वजन्यभ्रमिः इत्युक्ते या भ्रमिः चक्रे जन्या सा स्वजन्यभ्रमिः, चक्रनिष्ठ तदेव सा चक्रनिष्ठभ्रमिः अस्ति. तज्जन्या भ्रमिः कपालनिष्ठा. पुनः चक्रात् चक्रभ्रमणात् या भ्रमिः जायते कपाले सा तज्जन्या भ्रमिः कपालनिष्ठा भवति. भ्रमिः तादृशभ्रमिमत्ता, भ्रमिमत्ता, मत्ता इत्युक्ते अहं न स्मरामि, तादृशभ्रमिमत्ता,
भ्रमिमत्ता.
इत्युक्ते
ओहो
कपालः कीदृशः अस्ति?
हा, कपालः भ्रमि
भ्रमिमान् अस्ति खलु.
भ्रमिमान् अस्तु.
स्वजन्य भ्रमिजन्य भ्रमिमान् कपालः इति कृत्वा कपाले तादृश भ्रमिमत्ता अस्ति इति मतु प्रत्ययः अस्ति. भ्रमिमत्ता वा भ्रमिमत्वम् इति.
अस्तु अस्तु. कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयति इति. अस्तु, पुनः कथं दण्डः परम्परासम्बन्धेन अस्ति इत्युक्ते एतदेव कारणं. दण्डः समवायेन स्थित्वा घटं जनयति, अतः अन्य एव सम्बन्धः कार्यकारणभावघटकः.
इत्युक्ते
एतदेव.
केन सम्बन्धेन दण्डः कपाले अस्ति?
परम्परासम्बन्धेन.
परन्तु विस्तरेण कथं वदामः?
स्वजन्य भ्रमिजन्य भ्रमिमत्ता
सम्बन्धेन कपालः दण्डः कपाले अस्ति इति. अस्तु भगिनि, समीचीनम्. अग्रे सावित्री भगिनी.
क्षम्यतां, श्रूयते वा?
हा, श्रूयते भगिनि. तथा च इति आरभ्य.
तथा च यद्यपि दण्डः नष्टः तथापि तज्जन्यव्यापारः वर्तते इति दण्डोऽपि स्वजन्यव्यापारवत्तासम्बन्धेन कपाले सम्बद्धो भवति. अतः तेन सम्बन्धेन कारणं कार्यादिकरणे अस्ति इति न कारणाभावेऽपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः. अग्रे पठामि वा?
न भगिनि, तावत्पर्यन्तम्.
तावत्पर्यन्तम् अस्तु. यथा इदानीं रत्ना भगिनी प्रदर्शितवती, दण्डः यतोहि नष्टः परन्तु कपाले अस्ति एव परम्परासम्बन्धेन. अत्र यथा सा उक्तवती, तत्र स्वजन्यभ्रमिजन्यभ्रमिमत्ता सम्बन्धेन दण्डः कपाले इदानीमपि अस्ति, यतोहि वयं दृष्टवन्तः यत् दण्डस्य नाशः अभवत् इति प्रथमवाक्यस्य अर्थः. तथा च यद्यपि दण्डः नष्टः तथापि तज्जन्यव्यापारः वर्तते इति दण्डोऽपि स्वजन्यव्यापारवत्तासम्बन्धेन कपाले सम्बद्धो भवति. एवं वा? अग्रे अतः
भगिनी, तज्जन्य इत्युक्ते किं? तज्जन्यव्यापारः इत्युक्ते किम्?
तत्र तत् इति कारणं दण्डः.
दण्डजन्यव्यापारः इति.
दण्डेन जन्यव्यापारः.
व्यापारः कः?
व्यापारः भवति भ्रमिजन्यभ्रमिमत्वं. व्यापारः भवति अत्र व्यापारः
भ्रमणं
परन्तु कीदृशं भ्रमणं भ्रमणद्वयम् अस्ति खलु चक्रे भ्रमणम् अपि तु कपाले भ्रमणं परन्तु अत्र व्यापारः इत्युक्ते
व्यापारः इत्युक्ते अत्र भ्रमिजन्य स्वजन्य इति अस्ति खलु स्वजन्य इति दण्डेन जन्यः व्यापारवत्ता सम्बन्धेन कपाले
व्यापारः इत्यस्मिन् स्थाने किं
भ्रमिजन्य भ्रमिमत्वं भ्रमिजन्य चक्रे भ्रमिः जायते प्रथमं तेन जायते कपाले भ्रमिः
पुनः भ्रमिः इति कृत्वा भ्रमिजन्य भ्रमिः एव व्यापारः
अस्तु
भ्रमिजन्य भ्रमिः इति अत्र स्वजन्य इत्युक्ते
दण्डेन जन्यः
दण्डेन जन्य
भ्रमिजन्य
भ्रमिः
इति कपाले अस्ति इदानीमपि इति लिखितमस्ति
इति स च सम्बन्धः कपाले अस्ति इत्युक्ते दण्डः तेन सम्बन्धेन कपाले अस्ति परन्तु अत्र दण्डः कारणं व्यापारः कः पुनः वदतु भगिनि
भ्रमिजन्य भ्रमिः
भ्रमिः
चक्रे
कपालः इति
कपाले दण्डः यतोहि नष्टः एवं रीत्या एवं सम्बन्धेन इदानीमपि कपाले सम्बद्धो भवति इति तदर्थमेव चक्रभ्रमणं कपालभ्रमणेन घटः जायते इति आशयः अत्र व्यापारः इति भ्रमिजन्यभ्रमि दण्डः नष्टः परन्तु भ्रमिः तु अस्ति
अस्तु समीचीनमेव भगिनि अत्र कार्यकारणभावः तु वयं जानीमः दण्ड घटयोः कार्यकारणभावः अत्र कपालादि अत्र कार्यादिकरणं तु कपालः तत्तु वयं जानीमः परन्तु दण्डः कपाले अस्ति वा साक्षात् अस्ति वा दण्डः
साक्षात् नास्ति परम्परया एवं रीत्या अस्ति
समीचीनम् इत्युक्ते दण्डः यद्यपि नष्टः तस्य दर्शनं नास्ति इदानीं तथापि केनचित् सम्बन्धेन दण्डः कपाले वर्तते एव इति कृत्वा व्यापारम् उपयुज्य इत्युक्ते स्वजन्य भ्रमिजन्य भ्रमिमत्ता सम्बन्धेन दण्डः कपाले अस्ति इति कृत्वा दण्डस्य कारणत्वं संस्थापयामः
अतः तेन सम्बन्धेन कारणं कार्यादिकरणे अस्ति इति न कारणाभावे अपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः पूर्वं यथा शुकमनमहोदयं पठितवान् तत्र कारणं नास्ति एव इति वयं जानीमः दण्डस्य नष्टः अभवत् परन्तु कार्योत्पत्तिः जातः घटस्य निर्माणम् अभवत् तत्र व्यतिरेकव्याप्तिः व्यतिरेकव्यभिचारः इति भासते परन्तु तथा नास्ति यतोहि दण्डः नष्टः तथापि सः स्वजन्यभ्रमिजन्यभ्रमिमत्ता सम्बन्धेन कपाले सम्बद्धो भवति तेन सम्बन्धेन कारणं कार्याधिकरणे अस्ति इति स्वीकृत्य तत्र व्यतिरेकव्यभिचारः नास्ति इति
समीचीनं भगिनि समीचीनम् अस्तु अत्र स्पष्टः केन सम्बन्धेन अस्ति दण्डः कपाले इति कीदृशव्यापारः जायते इति स्पष्टं वा
आं भगिनि
अस्तु सरला भगिनी
अस्तु चक्षुसंयोगस्य कपालद्वयसंयोगस्य च व्यापारत्वकथनेन इदमपि स्पष्टं यत् सर्वदा कारणनाशय एव व्यापारः कल्पयः इत्यपि न निर्बन्धः लक्षणानुसारेण तस्य कारणजन्यत्वं तथा कार्यजनकत्वम् एव आवश्यकम् इति. वयं त्रय उदाहरणव्यापार प्रति दृष्टवन्तः. चक्षुसंयोगस्य यथा चक्षुसंयोगेन चक्षुषा संयोग घटप्रत्यक्षं प्रति व्यापारः अस्ति. कपालद्वयसंयोग कपालेन घटनिर्माणपति व्यापारः अस्ति. व्यापार अपि वयम् इदानीं दृष्टवन्तः भ्रमिजन्यभ्रमि दण्डेन घटनिर्माणं प्रति व्यापारः अस्ति. तत्र इदानीं व्यापारकथनेन इदमपि स्पष्टं, सर्वदा कारणनाशे एव व्यापारः कल्पय. यदि कारणं न दृष्टं वा कारणं नष्टं भवति तत् व्यापारमाध्येन वयं कार्यं प्रति कारणं व्यापारमाध्येन साधयामः. इत्यपि न निर्बन्ध इत्युक्ते किं भगिनि?
इत्युक्ते
आम् अत्र अहं चिन्तयामि अत्र अस्ति यत् यदा वयं चक्षुसंयोगस्य विषय दृष्टवन्तः, निमीलित चक्षुषः तत् संयोगः घटप्रदर्शनं न भवति, तथैव कपालद्वयसंयोगस्य यथा घट दण्डनाशः भवति, तत्र वयं किं कृतवन्तः व्यापार कपालद्वयसंयोगस्य यत्र व्यापारः तत्र भवति तत्र गतं प्रति तादृशी व्यापारत्वं तदेव न वदामः यथा कारणनाशः भवति तत् कोऽपि निर्बन्धः नास्ति. अन्य व्यापारः अन्यत्र स्थलेषु यत्र कारणनाशः न जातः तत्र अपि भवति तादृशी अहं चिन्तयामि अस्ति अत्र केवलं कारणनाशः जातः तादृश तदा व्यापारः भवति तथा न चिन्तनीयम्.
आम् आम् इति नास्ति. कारणनाशः सर्वथा भवेत् यत्र व्यापारः भवति इति न, केवलम् उदाहरणार्थम् अत्र दण्डस्य नष्टः भवति इति स्वीकृत्य व्यापारस्य निरूपणं जातम्, परन्तु सर्वथा तथा इति न. व्यापारस्य लक्षणवाक्यं वदतु भगिनि.
लक्षणानुसारेण तस्य कारणजन्यत्वं तथा कार्यजन्यतत्वम् एव आवश्यकम् इति. यथा उपरि दत्तमस्ति, व्यापारो नाम यः कारणात् जायते कार्यं च जनयति. कारणात् जायते यथा वयं दृष्टवन्तः, दण्डेन जायते भ्रमि जन्यभ्रमि तत् जनयति कार्यं कार्यं प्रति जनकता तस्मिन् अस्ति.
समीचीनम्. अतः सारांशः अस्ति यत् यद्यपि इति लक्षणवाक्यं, परन्तु सारांशत्वेन किम् अस्ति अत्र, यद्यपि कारणं न दृष्टं कुत्रचित् तथापि व्यापारम् आदाय कारणत्वं साधयामः इति. अस्तु, प्रश्नः अस्ति वा? अस्तु, धन्यवादः.
धन्यवादः. शुभरात्रि.
धन्यवादः.